ओम नमो भगवते वासुदेवाय। अथद्वाविंशोऽध्यायः। उद्धव उवाच, कतितत्वानि विश्वेश संख्यातान् ऋषिभिः प्रभो, नवैकादश पञ्चत्रीणि याच्छ त्वमिह सुश्रुम, केचित् षड्विंशतिं प्राहुरपरे पञ्चविंशतिं, सप्तैके नवषट्, केचित् चत्वारि एकादशापरे, केचित् सप्तदश प्राहुः षोडशैके त्रयोदश, एतावत्त्वं हि सङ्ख्यानां विषयो यद्विवक्षया, गायन्ति पृथगायुष्मन्निदं नो वक्तुमर्हसि। श्रीभगवानुवाच, युक्तं च सन्ति सर्वत्र भाषन्ते ब्राह्मणा यथा, मायां मदीयामुद्गृह्य वदतां किं नु दुर्घटम्, नैतदेवं यथार्थत्वं यदहं वच्मि तत्तथा, एवं विवदतां हेतुं शक्तयो मे दुरत्ययाः। यासां व्यतिकरा दासीद् विकल्पो वदतां पदं, प्राप्ते समदमेऽप्येति वादस्तमनुशाम्यति। परस्परानुप्रवेशात् तत्त्वानां पुरुषर्षभ, पौर्वापर्यप्रसङ्ख्यानं यथा वक्तुर्विवक्षितम्, एकस्मिन्नपि दृश्यन्ते प्रविष्टानीतराणि च, पूर्वस्मिन् वा परस्मिन् वा तत्त्वे तत्त्वानि सर्वशः, पौर्वापर्यमतोमीषां प्रसङ्ख्यानमभीप्सताम्। यथा विविक्तं यद्वक्त्रं गृह्णीमो युक्तिसम्भवात्, अनाद्यविद्यायुक्तस्य पुरुषस्यात्मवेदनं स्वतो न सम्भवादन्यस्तत्त्वज्ञो ज्ञानदो भवेत्। पुरुषेश्वरयोरत्र न वैलक्षण्यमण्वपि, तदन्यकल्पनापार्था ज्ञानं च प्रकृतेर्गुणः, प्रकृतिर्गुणसाम्यं वै प्रकृतेर्नात्मनो गुणाः। सत्त्वं रजस्तम इति स्थित्युत्पत्त्यन्त हेतवः, सत्त्वं ज्ञानं रजः कर्म तमो ज्ञानमिहोच्यते, गुणव्यतिकरः कालः स्वभावः सूत्रमेव च, पुरुषः प्रकृतिर्व्यक्तमहङ्कारो नभो निलः, ज्योतिरापक्षितिरिति तत्त्वान्युक्तानि मे नव, श्रोत्रं त्वग्दर्शनं घ्राणो दिव्येति ज्ञानशक्तयः, वाक्पाण्युपस्थ पायुवङ्घ्री कर्माण्यङ्गो भयं मनः, शब्दस्पर्शो रसो गन्धो रूपं चेत्यर्थजातयः, गत्युक्त्युत्सर्गशिल्पानि कर्मायतनसिद्धयः, सर्गादौ प्रकृतिर्यस्य कार्यकारणरूपिणि, सत्त्वादिभिर्गुणैर्धत्ते पुरुषो व्यक्त ईक्षते, व्यक्तादयो विकुर्वाणा धातवः पुरुषे क्षया, लब्धवीर्या सृजन्त्यण्डं संहतः प्रकृतेर्बलात्। सप्तैव धातव इति तत्रार्था पञ्चखादयः, ज्ञानमात्मो भयाधारस्ततो देहेन्द्रियासवः, षडित्यत्रापि भूतानि पञ्चषष्ठः परः पुमान्, तैर्युक्तात्मसम्भूतैः सृष्ट्वेदं समुपाविशत्, चत्वारि एवेति तत्रापि तेज आपोन्नमात्मनः, जातानि तैरिदं जातं जन्मावयविनः खलु, सङ्ख्याने सप्तदशके भूतमात्रेन्द्रियाणि च, पञ्च पञ्चैकमनसा आत्मा सप्तदशः स्मृतः, तद्वत् षोडशसङ्ख्याने आत्मैव मन उच्यते, भूतेन्द्रियाणि पञ्चैव मन आत्मा त्रयोदश, एकादशत्वात्मासौ महाभूतेन्द्रियाणि च, अष्टौ प्रकृतयश्चैव पुरुषश्च नवेत्यथ इति नानाप्रसङ्ख्यानं तत्त्वानां ऋषिभिः कृतं, सर्वं न्याय्यं युक्तिमत्वाद् विदुषां किमशोभनम्। उद्धव उवाच, प्रकृतिः पुरुषश्चोभौ यद्यप्यात्मविलक्षणौ, अन्योन्यापाश्रयात् कृष्ण दृश्यते न भिदातयोः, प्रकृतौ लक्ष्यते यात्मा प्रकृतिश्च तथात्मनि, एवं मे पुण्डरीकाक्ष महान्तं संशयं हृदि, छेत्तुमर्हसि सर्वज्ञ वचोभिर्नयनैपुणैः, त्वत्तो ज्ञानं हि जीवानां प्रमोशस्तेऽत्र शक्तितः, त्वमेव हि आत्ममायाया गतिं वेत्थ न चापरः। श्रीभगवानुवाच, प्रकृतिः पुरुषश्चेति विकल्पः पुरुषर्षभ, एष वैकारिकः सर्गो गुणव्यतिकरात्मकः, ममाङ्गमाया गुणमय्यनेकधा विकल्पबुद्धिश्च गुणैर्विधत्ते, वैकारिकस्त्रिविधोऽध्यात्ममेक मथाधिदैवमधिभूतमन्यत्, दृग्रूपमार्कं वपुरत्र रन्ध्रे परस्परं सिद्ध्यति य स्वतखे, आत्मा यदेषामपरो य आद्यः स्वयानुभूत्याखिलसिद्धसिद्धिः, एवं त्वगादिश्रवणादिचक्षुर्जिह्वादिनासादिच चित्तयुक्तम्, योऽसौ गुणक्षोभकृतो विकारः प्रधानमूलान्महतः प्रसूतः। अहम त्रिविन्मोह विकल्प हेतुर्वैकारिकस्तामस ऐन्द्रियस्य आत्मा परिज्ञानमयो विवादो यस्तीति नास्तीति भिदार्थनिष्ठः व्यर्थोऽपि नैव परमेतपुंसां मत्तः परावृत्तधियां स्वलोकात्। उद्धव उवाच त्वत्तः परावृत्तधिया स्वकृतैः कर्मभिः प्रभो उच्चावचान्यथा देहान् गृह्णन्ति विसृजन्ति च तन्ममाख्याहि गोविन्द दुर्विभाव्यमनात्मभिः नहि एतत् प्रायसो लोके विद्वांसः सन्ति वञ्चिताः। श्रीभगवानुवाच मनः कर्ममयन्द्रीणामिन्द्रियैः पञ्चभिर्युतम् लोकाल्लोकम् प्रयात्यन्य आत्मा तदनुवर्तते ध्यायन् मनोनु विषयान् दृष्टान् वानुश्रुतानथ उद्यत्सीदत् कर्मतन्त्रम् स्मृतिस्तदनुशाम्यति विषयाभिनिवेशेन नात्मानम् यत् स्मरेत् पुनः जन्तोर्वैकस्य सिद्धेतोर्मृत्युरत्यन्त विस्मृतिः जन्मत्वात्मतया पुंसः सर्वभावेन भूरिद विषयस्वीकृतिम् प्राहुर्यथा स्वप्नमनोरथः स्वप्नम् मनोरथम् चेत्थम् प्राक्तनम् न स्मरत्यसौ तत्र पूर्वमिवात्मानमपूर्वम् चानुपश्यति। इन्द्रियायनसृष्ट्येदम् त्रैविध्यम् भाति वस्तुनि बहिरन्तर्भिदा हेतुर्जनो सज्जनकृद्यथा नित्यदायङ्गभूतानि भवन्ति न भवन्ति च कालेनालक्ष्यवेगेन सूक्ष्मत्वात् तन्न दृश्यते यथार्थिषाम् श्रोतसाम् च फलानाम् वा वनस्पतेः तथैव सर्वभूतानाम् वयोवस्थादयः कृताः सोऽयम् दीपोर्चिषाम् यद्वत् श्रोतसाम् तदिदम् जलम् सोऽयम् पुमानितिन्द्रिणाम् नृषा गीर्धीर्मृषायुषाम् मा स्वस्य कर्मबीजेन जायते सोऽप्ययम् पुमान् म्रियते वामरोभ्रान्त्या यथाग्निर्दारुसंयुतः निषेकगर्भजन्मानि बाल्यकौमारयौवनम् वयोमध्यम् जरा मृत्युरित्यवस्थास्तनोर्नव एतामनोरथमैर्यन्यस्योच्चावचस्तनूः गुणसङ्गादुपादत्ते क्वचित् कश्चिज्जहाति च आत्मनः पितृपुत्राभ्यामनुमेयौ भवाप्ययौ न भवाप्ययवस्तूनामभिज्ञो द्वयलक्षणः तरोर्बीजविपाकाभ्याम् यो विद्वान् जन्म संयमौ तरोर्विलक्षणो द्रष्टा एवम् द्रष्टा तनोः पृथक् प्रकृतेरेवमात्मानमविविच्या बुधः पुमान् तत्त्वेन स्पर्शसम्मूढः संसारम् प्रतिपद्यते सत्त्वसङ्गादृशीन् देवान् रजसा सुरमानुषान् तमसा भूततिर्यक्त्वम् भ्रामितो याति कर्मभिः नृत्यतो गायतः पश्यन् यथैवानुकरोति तान् एवम् बुद्धिगुणान् पश्यन्ननीहोऽप्यनुकार्यते यथाम्भसा प्रचलता तरवोऽपि चला इव चक्षुषा भ्राम्यमाणेन दृश्यते भ्रमतीव भूः यथा मनोरथधियो विषयानुभवो मृषा स्वप्नदृष्टाश्च दासार्ह तथा संसार आत्मनः अर्थेय विद्यमानेऽपि संसृतिर्न निवर्तते ध्यायतो विषयानस्य स्वप्नेनर्थागमो यथा तस्मादुद्धवमाभुङ्क्ष्व विषयानसदिन्द्रियैः आत्मा ग्रहणनिर्भातम् पश्य वैकल्पिकम् भ्रमम् क्षिप्तोऽवमानितो सद्भिः प्रलब्धो सूयितोऽथ वा ताडितः सन्निबद्धो वा वृत्त्या वा परिहापितः निष्ठितो मूत्रितो वाग्यैर्बहुधैवम् प्रकम्पितः श्रेयस्कामः कृच्छ्रगत आत्मनात्मानमुद्धरेत्। उद्धव उवाच यथैवमनुबुद्ध्येयम् वदनो वदताम् वर सुदुःसहमिमम् मन्ये आत्मन्यसदतिक्रमम् विदुषामपि विश्वात्मन् प्रकृतिर्हि बलीयसि ऋते त्वद्धर्मनिरतान् शान्तांस्ते चरणालयान्। ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायामेकादशस्कन्धे द्वाविंशोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधि माम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।